सर्वेभ्यो नमः, स्वागतम्। अद्य वयं भूतकालस्य विषये किञ्चित् आरम्भं कुर्मः। अस्तु, वयं गतसप्ताहे धातुगणानां विषये वयं पूरितवन्तः। अद्य वयं भूतकालस्य विषये पठामः। अस्तु, राधा भगिनी भवती पठति वा अत्र?
आं पठामि भगिनि। किं कुर्वत सञ्जय? उच्चैः पठत जानीत च भूतकालः अस् धातुः। एषः अर्जुनः अस्ति। अज्ञातवासे एषः बृहन्नला आसीत्। एषा द्रौपदी अस्ति। अज्ञानवासे एषा सैरन्ध्री आसीत्।
अत्र अस्ति अपि आसीत् इत्यस्य प्रयोगः ते वदन्ति। अस्तु, तत्र अन्ते ते दत्तवन्तः युधिष्ठिरः अज्ञातवासे कङ्कः आसीत्, भीमः वल्लवः आसीत्, नकुलः क्रन्तिकः आसीत्, सहदेवः तन्तिपालः आसीत्। अस्तु,
अज्ञातवासे अर्थं किं भगिनि?
तत्र पाण्डवाः चतुर्दशवर्षाणि वने तत्र दे हेड् टु हैड्।
त्रयोदशवर्षेः वनवासं, चतुर्दशवर्षम् अज्ञातवासम्। अज्ञातवासं मीन्स् दे हेव् टु गो इन् टु हैडिङ्ग्, दे शुड् नाट् बी विजिबल्, दे शुड् गो इन् टु हैडिङ्ग्, अण्ड् इफ् दे वेर् टु बि फौण्ड् देन् दे विल् रिपीट् 13 years आफ् एक्सैल् इन् फारेस्ट् अण्ड् अनदर् 1 year आफ् हैडिङ्ग्।
ओके ओके,
अस्तु। आम्, इदानीम् अस् धातोः रूपाणि एकवारं पश्यामः। वर्तमानकाले अपि भूतकाले, वर्तमानकाले प्रिया भगिनी भवती पठतु।
एकवचनम् अस्ति, द्विवचनं सः, बहुवचनं सन्ति। प्रथमपुरुषः, मध्यमपुरुषः असि, स्तः, स्त। उत्तमपुरुषः अस्मि, वः, स्मः।
समीचीनम्। अस्तु, इदानीं गोपाल् महोदय भूतकाले पठतु।
एकनिमिषम्। अस्ति, स्वः, मः। भूतकाले एकवचनं प्रथमपुरुषः आसीत्, आस्ताम् आसन्। मध्यमपुरुषः आसीः, आस्तम् आस्त। उत्तमपुरुषः आसम्, आस्व, आस्म।
समीचीनम्। अस्तु, अत्र अस्तातोः वर्तमानकाले अपि भूतकाले रूपाणि दत्तानि सन्ति, एतानि जानन्ति वा? अथवा
वर्तमानकाले जानामि, भूतकाले
अस्तु, अत्र वयं पश्यामः। अस्तु अस्तु, अत्र अभ्यासः। प्रथमपुरुषः राधा भगिनी भवती पठतु, अपि मध्यमपुरुषं करोतु।
आं भगिनि, यतोदाहरणं रिक्तस्थानानि पूरयत। एकवचनं प्रथमपुरुषः, सः वाक्पटोः आसीत्, पटू आस्ताम्। बहुवचनं, ते वाक्पटवः आसन्। मध्यमपुरुषः, त्वं वाक्पटु
आसीत्
आसीत् नो आस्त युवाम् आसीः ओके युवां वाक्पटु आस्तम् एण्ड् यूयं वाक् यूयं
वाक्पटवः एव
वाक्पटवः
अत्र आसीः आस्ताम् आस्त इति भवति आस्तम् आस्त अस्तु प्रिया भगिनी भवती अत्र उत्तमपुरुषं करोतु
अहं वाक्पटुः ऐ थिङ्क् आसम् आवां वाक्पटु आस्व ऐ थिङ्क् इट्स् आसान् आस्व आस्म ऐम् नाट् शुर् भगिनि प्लीज् से दट् अगेन् भगिनि आस्त आस्तम्
न आसम्
आसम् ओके सो इट्स् रैट् ओके आसम् आस्व
आस्म
आस्म ओके सो वयं वाक् पटवः आस् आस्म
समीचीनं अस्तु अत्र वर्तमानकाले अपि भूतकाले अस्तु राधा भगिनी न न गोपाल् महोदय भवान् अत्र पठतु
युधिष्ठिरः नगरं गच्छति भूतकाले युधिष्ठिरः नगरं गतवान् दुर्योधनः अपि नगरं गच्छति दुर्योधनः अपि नगरं गतवान् तौ सर्वान् नगरजनान् पश्यतः तौ सर्वान् नगरजनान् दृष्टवन्तौ तौ सर्वैः मिलतः तौ सर्वैः मिलितवन्तौ युधिष्ठिरः एकमपि दुर्जनं न प्राप्नोति युधिष्ठिरः एकमपि दुर्जनं न प्राप्तवान् दुर्योधनः एकमपि सज्जनं न प्राप्नोति दुर्योधनः एकमपि सज्जनं न प्राप्तवान् यथा दृष्टिः अस्ति तथा दर्शनं यथा दृष्टिः आसीत् तथा दर्शनम्
समीचीनम् अस्तु अनन्तरं राधा भगिनी भवती पठतु
सैरन्ध्री सेविका अस्ति सैरन्ध्री सेविका आसीत् सा राज्ञी सेवते सा राज्ञीं सेवितवती सा केशप्रसादनं करोति सा केशप्रसादनं कृतवती सा प्रतिफलं न इच्छति सा प्रतिफलं न इष्टवती सा नम्रतया तिष्ठति सा नम्रतया स्थितवती
समीचीनम् अनन्तरं प्रिया भगिनी भवती
देशभक्तिगीतं गायसि त्वं देश bhakti geetam geetavati yuvam sarvada satyam vadathah yuvam sarvada satyam uktavantau yuyam bhajatve yuyam bhaktavantah aham bunje aham bhuktavan.
अस्तु अत्र भजद्वे अपि भुञ्जे अत्र भक्तवन्तः भुक्तवान् इति भवति. अस्तु तस्य रूपाणि इदानीं वयं पश्यामः. अहं चिन्तयामि आत्मनेपदीरूपाणि किञ्चित् क्लेशः भवति इति. अस्तु पश्यामः वा अत्र तावत् प्रत्ययान्त अत्र भूतकालस्य वयं दृष्टवन्तः तावतु प्रत्ययः अस्ति. एतत् प्रत्ययः भवति परन्तु लकारे तत्र किं भवति लङ्लकारः भवति किल तावतु प्रत्ययः अथवा लङ्लकारः उपयोगं कर्तुं शक्नुमः भूतकाले किमपि वक्तुम्. अस्तु प्रथमतया तावत् प्रत्यान्तं रूपं वयं पश्यामः तदनन्तरं लङ्लकारस्य रूपं पश्यामः. अस्तु अस्तु गोपाल् महोदय भवान् पठतु अत्र
एकनिमिषं महोदय एकसंशयम् अस्ति. तव तु प्रत्यय एवमेव लङ्लकाररूपं द्वयमपि भूतकाल एव
किल? आम्
ओके
अस्तु गोपाल् महोदय भवान् पठति इच्छति अपि करोति त्रीणि त्रीणि कुर्वन्तु. अस्तु
पठति पठितवान् पठितवन्तौ पठितवन्तः इच्छति इष्टवान् इष्टवन्तौ इष्टवन्तः करोति कृतवान् कृतवन्तौ कृतवन्तः.
समीचीनम्. अनन्तरं राधा भगिनी
गायति गीतवान् गीतवन्तौ गीतवन्तः धरति धृतवान् धृतवन्तौ धृतवन्तः भजति भजति भक्तवान् भक्तवन्तौ भक्तवन्तः वा
आम् भक्तवान् भक्तवन्तौ भक्तवन्तः. समीचीनम्
धन्यवादः.
अस्तु अनन्तरं प्रिया भगिनी
क्रीडति क्रीडितवान् क्रीडितवन्तौ क्रीडितवन्तः नयति नीतवान् नीतवन्तौ नीतवन्तः गर्जति गर्जितवान् गर्जितवन्तौ गर्जितवन्तः.
समीचीनम्. अस्तु गोपाल् महोदय
भ्रमति भ्रमितवान् भ्रमितवन्तौ भ्रमितवन्तः शृणोति श्रुतवान् श्रुतवन्तौ श्रुतवन्तः तपति तप्तवान् तप्तवन्तौ तप्तवन्तः.
समीचीनम्. अस्तु राधा भगिनी
बोधयति बोधितवान् बोधितवन्तौ बोधितवन्तः लिखति likhitavan likhitavantau likhitavantah hasati hasitavan hasitavantau hasitavantah
samichinam priya bhagini
can you scroll up please bhagini
samitam kshetam
namati natavan nati na natavantau natavantah tadati daktavan daktavantau daktavantah prichati prishtavan prishtavantau prishtavantah
asto anantaram
brute brute उक्तवान् उक्तवन्तौ उक्तवन्तः ईक्षते ईक्षितवान् ईक्षितवन्तौ ईक्षितवन्तः लभते लब्धवान् लब्धवन्तौ लब्धवन्तः
आस्ते आसितवान् आसितवन्तौ आसितवन्तः युध्यते युद्धवान् युद्धवन्तौ युद्धवन्तः
समीचीनम् अस्तु अनन्तरम् अस्तु एतत् पुल्लिङ्गे वयं कृतवन्तः किल एकवचनं द्विवचनम् अपि बहुवचनम् एतत् पुल्लिङ्गे अत्र तव तु प्रत्ययः अस्ति किल तदर्थं पुल्लिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः तत्र लिङ्गभेदः अस्ति अस्तु इदानीं स्त्रीलिङ्गः स्त्रीलिङ्गे किं भवति प्रिया भगिनी
तत्लकारः रूपं तवत्तु प्रत्यन्तः रूपं स्त्रीलिङ्गे पिबति पीतवती पीतवत्यौ पीतवत्यः करोति कृतवती कृतवत्यौ कृतवत्यः वदति उदितवती उदितवत्यौ उदितवत्यः
समीचीनं गोपाल् महोदय
पश्यति दृष्टवती दृष्टवत्यौ दृष्टवत्यः गच्छति गतवती गतवत्यौ गतवत्यः क्षिपति क्षिपितवती क्षिपितवत्यौ क्षिप्तवत्यः क्षिप्तवती क्षिप्तवत्यौ क्षिप्तवत्यः
जपति जपितवती जपितवत्यौ जपितवत्यः नयति नीतवती नीतवत्यौ नीतवत्यः तिष्ठति स्थितवती स्थितवत्यौ स्थितवत्यः
एते सर्वे भूधातु रूपाणि वा भूधातु प्रथमधातुगण भूधातु भुवादिगणः धातु रूपाणि रूपमस्ति वा
सर्वाणि न भुवादिगणे
एते
परन्तु बहवः उपादिगणे सन्ति अस्तु इदानीं
अहं वदामि भगिनि कूजति कूजितवती कूजितवत्यौ कूजितवत्यः पृच्छति पृष्टति पृष्टवत्यौ पृष्टवत्यः कथयति कथितवती कथितवत्यौ कथितवत्यः
भगिनि द फस्ट् वन् किं वदति पृच्छति
पृष्टवती पृष्टवत्यौ पृष्टवत्यः
देहगन्धरूपं न भगिनि
आम् अस्तु अनन्तरं गोपाल् महोदय
फ्रम् वेर् भगिनि कथयति
वा
शृणोति श्रुतवती श्रुतवत्यौ श्रुतवत्यः हसति हसितवती हसितवत्यौ हसितवत्यः चलति चलितवती चलितवत्यौ चलितवत्यः
क्रीडति क्रीडितवती क्रीडितवत्यौ क्रीडितवत्यः गायति गीतवती गीतवत्यौ गीतवत्यः तपति तप्तवती तप्तवत्यौ तप्तवत्यः
शेते शयितवती शयितवत्यौ शयितवत्यः जानीते ज्ञातवती ज्ञातवत्यौ ज्ञातवत्यः यतते यत्वत्यै यतति यतवत्यौ
अत्र यत्तवत्यः इति दत्तमस्ति
यत्तवत्यः यत्तवति यत्यवति
यत्यवति यत्यवत्यौ यत्तवत्यः
यत्य यत्तवती यत्तवत्यौ यत्तवत्यः लभते लब्धवती लब्धवत्यौ लब्धवत्यः
समीचीनम् अस्तु एतत् गृहपाठरूपेण कुर्वन्तु भवन्तः किं कृतवन्तः इति पञ्चवाक्यानि लिखत अस्तु अत्र रिक्तस्थानानि तावतु प्रत्ययान्तरूपैः पूरयत अहम् आश्रमम् अत्र धातुः दत्तमस्ति गम् धातुः इति गम् धातोः तावतु प्रत्ययः दत्तवान् इति अस्तु अत्र एकमहं वदामि तत्र तावतु प्रत्यये पुरुषभेदः नास्ति त्वम् अस्ति चेत् तत्र एकवचनम् एव वचनं वयं चिन्तयामः पुरुषः किम् इति न चिन्तयामः अस्तु अत्र त्वं तदा तत्र कदा अत्र द्वितीय त्वं तत्र कदा रिक्तस्थानं गम् धातुः अस्ति चेत् क्षम्यतां गम् धातोः एकवचनरूपं किम् इति वयं पश्यामः तत्र गतवान् इति त्वं तत्र कदा गतवान् इत्येव वदामः तत्र अहम् इति उत्तमपुरुषः त्वम् इति मध्यमपुरुषः इति तत्र तौतु प्रत्यये भेदः नास्ति अस्तु अवगच्छन्ति वा गोपाल् महोदय भवान् आरम्भं करोतु भवान् पञ्चवाक्यानि करोतु अत्र पुनः अत्र आरम्भं करोतु एतत् पठतु अपि पञ्चवाक्यानि करोतु अस्तु
अहम् आश्रमं गतवान् त्वं तत्र कदा त्वं त्वं तत्र गतवन्तौ गतवन्तः बट् इस् इस् त्वं रूपं त्वं तत्र तदा we didn't do the madhyama purusha rupam there on top na bhagini
bhavati aham idanim kim uktavati tatra tavat rupe tatra
purusha
na santi aham uktavati tatra gatavan iti eva bhavati tatra vayam vachanam pashyamah purushah natra lakarah asti chet tada vayam वचनम् अपि पुरुषः वयं पश्यामः परन्तु प्रत्ययः अस्ति चेत् केवलं वचनं पश्यामः
त्वं तत्र कदा गतवान् वयम् एकस्य वृद्धस्य जीवनकथां श्रुतवान् वयम् एकस्य वृद्धस्य जीवनकथां श्रुतवन्तः सः पूर्वं योगशास्त्रं पठितवान् तत्र निपुणतां प्राप्तवान्
अस्तु अनन्तरं राधा भगिनी
किन्तु जीवने तत् न आनीतवान् तेन दुःखं प्राप्तवान् कुत्रापि ज्ञानं न दत्तवान् अनन्तरं वृद्धाश्रमम् आगतवान् किं त्वम् एतां घटनां श्रुतवान्
समीचीनं भगिनि अस्तु इदानीं प्रिया भगिनि
यूयं तत्र स्थापितवान्
न न न न यूयं
बहुवचनं स्थापितवन्तः आवाम् एतस्मिन् विषये चिन्तनं कृतवन्तौ वयं जीवने योगशास्त्रम् आचरितवन्तः कुरुक्षेत्रे कौरवपाण्डवाः युद्धवन्तः अर्जुनः सैन्यम्
एकनिमिषं तत् द्विवचनमस्ति किल कुरुक्षेत्रे कौरव पाण्डवाः
पाण्डवाः बहुवचनम् अस्ति
पाण्डवाः बहुवचनम्
ओके ओके क्षम्यता
अर्जुनः सैन्यम् ईक्षितवान्
ईक्षितवान् इति उक्तवती किल सम्यक् एव अत्र वर्तमानकाल अस्तु एतत् पर्यन्तं वयं तावत् प्रत्ययः कृतवन्तः प्रश्नाः सन्ति वा लङ्लकारं कुर्मः
भगिनि पुनरेकवारं तस्य रूल् वदतु भगिनि
अस्तु त्वम् इति अत्र एतत् वा
न पुरुष
आम् आम् वदामि तत्र प्रत्ययस्य तौतुप्रत्ययः वयम् इदानीं पश्यामः तत्र पुरुषः नास्ति तत्र पिबति इति पश्यामः चेत् तत्र पीतवान् इति अस्ति परन्तु मध्यमपुरुषः प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः इति नास्ति तदर्थम् अत्र वयं पश्यामः चेत् तत्र त्वं तत्र कदा रिक्तस्थानम् अस्ति चेत् त्वम् इति मध्यमपुरुषः इति न चिन्तनीयं तत्र त्वम् इति एकवचनं तदर्थं तं धातोः तावतु प्रत्ययः एकवचनं किं रूपं भवति इति पश्यामः
धन्यवादः
अत्र उच्चैः पठत जानीत च वर्तमानकालः लट् अपि भूतकालः लङ् लकारः इदानीं पश्यामः अस्तु अत्र पुरुषः अपि वचनं पश्यामः अस्तु अस्तु राधा भगिनी भवती पठतु एकनिमिषम् अहम् आगच्छामि भवन्तः पठन्तु
ओके भगिनि उच्चैः पठत जानीत च वर्तमानकालः लट् लकारः भूतकालः लङ् लकारः सुरेशः भक्तियोगं पठति सुरेशः भक्तियोगम् अपठत् श्यामः गीताप्रदर्शिनीं पश्यति श्यामः गीताप्रदर्शिनीम् अपश्यत् ताः मथुरां गच्छन्ति ताः मथुराम् अगच्छन् क्षत्रियः युद्धं लभते क्षत्रियः युद्धम् अलभत् सर्वे कर्मणः फलं भुञ्जते सर्वे कर्मणः फलम् अभुञ्जत् अहं कृष्णं भजे अहं कृष्णम् अभजे अर्जुनः प्रज्ञावादान् भाषते अर्जुनः प्रज्ञावादान् अभाषत् सात्विकाः देवान् यजन्ते सात्विकाः देवान् अयजन्त
What are these forms, Bhagini?
The past tense, in Tavatu Pratyaya, we only care about the number. Aham, Saha Patathi, Tvam, you know, also it is Saha Patitavan, Tvam Patitavan.
Yeah.
Aham Patitavan. Aham Abhi Patitavan. There is no significance of first person, second person or third person. But in this other form, we are seeing how the form is changing with the person, like patati, apatat, gacchanti, agacchan. So gacchanti is plural form. So the plural form bahuvachanam is coming as agacchan.
Instead of gatavan.
गतवन्तः इट् इस् देर् नो तवतु रूपं गं गच्छति गतवान् गतवन्तौ गतवन्तः तवतु रूपम् आफ् गच्छति बहुवचनम् इस् गतवन्तः वेरेज् इन् दिस् अदर् फार्म् लङ्लकाररूपं दिस् इस् अगच्छन् I don't know. What is this Rupam called, Bhagini?
This is the normal Langlakara Rupam, Mahodaya.
Okay. Tavatu Pratyaya only has that name, Tavatu Pratyaya.
Yeah, yeah, Tavatu Pratyaya and Langlakara Rupam both can be used to express past tense, right?
Yeah.
So, but if you are using Tavatu Pratyaya, the rule is you shouldn't look at the Purushaha.
Yeah, you only care about the number. You don't care
number.
About the first person, second person, third person, we don't bother.
Right.
But
if you're going to use the Bhutakala form, then you have to worry about the Purusha also.
Yeah. Yes.
Okay.
Tatra Tautu Pratyaha Pratyaha Namakim Tatra Kriyapadam Atra Namapadam Bhavati Atra Pashyantu Kriyapadasya Lingam Nasti परन्तु प्रत्ययः भवति चेत् तत्र लिङ्गं भवति तत्र नामपदं भवति पीतवती पीतवत्यो पीतवत्यः इति लिङ्गं भवति तदर्थं पुरुषः नास्ति एतद् नामपदं भवति पुरुषः नास्ति परन्तु लङ्लकारे तत्र क्रियापदम् अस्ति पुरुषः अस्ति
इण्ट्रेस्टिङ्ग् गच्छति सा गच्छति बट् सः गतवान् सा गतवती सो द वर्ब् चेञ्जस् फार्म् वित् पास्ट् टेन्स्
द लिङ्गम् इस् प्लेयिङ्ग् अ रोल् हियर् नाट् द पुरुषः
अस्तु तौ प्रत्यये प्रश्नाः सन्ति वा
इदानीं नास्ति भगिनि
अस्तु अत्र एतत् पठितवन्तः वा अत्र रूपाणि
सर्वाणि पठितवती
अत्र एकवारं एतत् पश्यामः अस्तु चल् धातुः सर्वे एकवारं रूपं वदन्तु अस्तु अस्तु चल् धातुः वदन्तु
सो दिस् वन् विल् गेट् आल् द नैन् फार्म्स् भगिनी दि अदर् वन् इन् तवतु प्रत्यय देर् आर् ओन्ली त्री रैट्
आम् आम्
बट् द त्री अगेन् इफ् इट् इस् pulinga tri strilinga tri and napumsaka linga vi tri asti va we have not studied
usually we only do pulinga and strilinga
so okay
that is the one that is mainly used so that's only what they cover
astu
astu chal dato prathamatya Gopal mahodaya
चल् धातुः प्रथमपुरुषः अचलत् अचलताम् अचलन् मध्यमपुरुषः अचलः अचलतम् अचलत उत्तमपुरुषः अचलम् अचलाव अचलाम दृश् धातुः अपश्यत् अपश्यताम् अपश्यन् अपश्यः अपश्यतम् अपश्यत अपश्यम् अपश्याव अपश्याम
भगिनी एकप्रश्नमस्ति तत्र इफ् इट् इस् प्रेसेण्ट् टेन्स् चलत चलतां चल लैक् देट् इट् गोस् रैट् हियर् यु जस्ट् अपेण्ड् वन् अ रैट् इन् द पास्ट् टेन्स्
सो यु विल् आल्वेस् एड् अन् अ सो अस्तु एतत् पठन्तु अण्ड् देन् ऐ विल् टेल् यु अनदर् थिङ्ग् First, look at the, like, chalati, pashyati, tishtati, and astu. Astu. Radha Bhuni Bhavati Patatu.
Drishtatu, va?
Drishtatu.
Apashyat, apashyatam, apashyan, apashyah, apashyatam, apashyat. अपश्यम् अपश्याव अपश्याम
समीचीनं सा धातुः प्रिया भगिनी
सा धातुः अतिष्ठत् अतिष्ठताम् अतिष्ठत् तिष्ठन् अतिष्ठः अतिष्ठतम् अतिष्ठत अतिष्ठम् अतिष्ठाव अतिष्ठाम
गोपाल महोदय
ऐच्छत् ऐच्छत् ऐच्छताम् ऐच्छन् ऐच्छ ऐच्छतम् ऐच्छत ऐच्छम् ऐच्छाव ऐच्छाम
इदानीम् अत्र किं किमर्थम् अत्र ऐ इति भवति तत्र चल्धातोः दृष्टातोः स्थातातोः अ अचलत् अपश्यत् अतिष्ठत् इति भवति अत्र किमर्थम् ऐच्छत् इति अस्ति
सन्धि अस्ति किल अ प्लस् इ
योगः इ ऐ इति ऐच्छत् इति भवति समीचीनम् अस्तु अनन्तरं बाष् राधा भगिनी
बाष् अभाषत् अभाषेताम् अभाषन्त अभाषताः अभाषेताम् अभाषध्वम् अभाषे अभाषावहि अभाषामहि
समीचीनम्
दिस् इस् भाषते किल
भाषते
ओके
प्रिया भगिनी भू धातुः
अभ्रूत अभ्रूवता ब्रूवाता अभ्रूवत अभ्रूताः अभ्रुवाताम् अभ्रूद्वम् अब्रूवि अब्रूवहि अब्रूमहि दिस् इस् वेरि डिफ्रेण्ट्
आत्मनेपदी भगिनी ब्रूते ब्रूत ब्रूवतां द सेम् थिङ्ग् भगिनी
ओके
सेम् थिङ्ग् वित् भाष आल्सो भाषते
ओके
अत्र भाषते इत्यस्य रूपं तत्र साधारण आत्मनेपदी लङ्लकाररूपं तत्र विशेषरूपम् अथवा अन्यानां गणानाम् अस्ति चेत् तत्र भूते इत्यस्य द्रष्टव्यम् अस्तु अस्तु अभ्यासः अस्तु अत्र प्रथमपुरुषे तत्र एकवचने सहसा भवान् अथवा भवती अपठत् अपठताम् अपठन् अचलत् अचलताम् अचलन् अत्र एतत् अपठत् अचलत् इति परस्मैपदी धातुः अस्ति अनन्तरम् अलभत अलभेताम् अलभन्त असेवत असेवेताम् असेवन्त इति आत्मनेपदीरूपम् अनन्तरं मध्यमपुरुषः अस्ति राधा भगिनी भवती पठतु
त्वं युवां यूयम् अपठः अपठतम् अपठत अचलः अचलतम् अचलत अलभताः अलभेताम् अलभध्वम् असेवताः असेवेताम् asevatvam.
उत्तमपुरुषः प्रिया भगिनी
असम् दट्स् वाट् भगिनी जस्ट् रेड् रैट् हलो
नो दिस् इस् उत्तमपुरुषः भगिनी ऐ रेड् मध्यमपुरुषः
मध्यमपुरुषः
ओके ओके
सेम् सेम् क्रियापदं बट् डिफ्रेण्ट् फार्म्स्
ओके 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 अहम् अपटम् अहम् अचलम् अहम् डोट् हरिज़ाण्टल् अपटम् अपटाव अपटाम अचलम् अचलाव अचलाम अलबे अलबावहि अलबामहि असेवे असेवावहि असेवामहि
इदानीम् अत्र यतोदाहरणं धातूनां रूपाणि लिखत अत्र वयं किं कुर्मः वयं सर्वाणि रूपाणि वदामः तत्र अभ्यासः भवति अस्तु अस्तु पट् धातुः
भगिनी देट् विल् बि डिफिकल्ट् भगिनी इट्स् डिफिकल्ट् टु रीकाल् वी नीड् सम् रेफरेन्स् भगिनी
अस्तु अहं किं करोमि एकनिमिष ऐल् रैट् द रूपं फोर् वन् क्रियापदम् अण्ड् देन् ऐल् टेल् यु द क्रियापदं यु हेव् टु कान्जुगेट् इट् सो यु विल् लुक् अट् देट् अण्ड् देन् यु केन् टेल् फोर् दिस् वीक्
Bhagini, we have to go a bit slow and we have to do that Indian style learning of classroom learning. We have to write, Bhagini, otherwise it's very difficult. We cannot immediately recall all of them and tell them. If we write in our books while you are teaching, it will go maybe 5-10 minutes slower. But at least we have some reference. This one I wrote.
Drishyate va?
Samichinam asti.
If you want to write this, just write it now.
Bhagini, ekam nimisham bhagini.
Aama, I'll leave it. I'll give you 5 minutes. No worries. Don't rush.
I wrote it at that time itself, Bhagini. But that dhatu rupani will change, no? Not all will be like all. Drishya dhatu is apashyata, so those things also we need to know.
Bhagini, you have to give us an example for the Atmanepa Padi also.
Atta Lekhami. लिखितवन्तः वा
भगिनी मध्यमपुरुषः त नो फस्ट् वन् इन् द आत्मनेपदी त ताम् अन्त ताः तां द्वं किल हैलैटिङ्ग् तत्र शापि कृतवती
अत्र अत्र न अस्तु अत्र किमर्थम् अहं कृतवती चेत् तत्र एताम् इति अहं कथं करोमि इति अहं न जानामि तदर्थम् अहं श अपि श्वेताम् इति अहं कृतवती परन्तु अत्र एताम्
ओहो
एताम् अपि अत्र एताम् अहम् एकनिमिषः अत्र एतत् भवति इदानीम् एतत् पश्यन्तु अहं क्रियापदं ददामि भवन्तः रूपं वदन्तु अस्तु इदानीम् अस्तु पठति
अपठत् अपठताम् अपठम् अपठः अपठतम् अपठत अपठम् अपठाव अपठाम
शुच् धातुः शोचति प्रिया भगिनी
अशोचत् अशोचताम् अशोचन् अशोचः अशोचतम् अशोचत अशोचम् अशोचाव अशोचाम
नमति राधा भगिनी
अनमत् अनमताम् अनमन् अनमः अनमतम् अनमत अनमम् अनमाव अनमाव
वदति गोपाल् प्रिया भगिनी
वदत वदत् अवदत् अवदत सारि ऐ मी स्टार्ट् ओवर् अवदत् अवदताम् अवदन् अवदः अवदतम् अवदत अवदम् अवदाव अवदाम
तरति त करोति
अधरत् अधरताम् अधरम् अधरः अधरतम् अधरत अधरम् अधराव अधराम समीचीनं वा
समीचीनम् स्था धातुः तिष्ठति
अतिष्ठत् अतिष्ठताम् अतिष्ठन् अतिष्ठः अतिष्ठम् अतिष्ठत अतिष्ठम् अतिष्ठाव अतिष्ठाम समीचीनं वा भगिनि
समीचीनं समीचीनं धातुः हरति भगिनि
हरति अहरत् अहरताम् अहरन् अहरः अहरतम् अहरत अहरम् अहराव अहराम
समीचीनं न्या धातुः जानाति गोपाल् महोदय न्या धातुः गोपाल् महोदय
सोरि म्यूट् मध्ये अस्मि अजानत् अजानताम् अजानम् अजानः अजानतम् अजानत अजानम् अजानव अजानम अजाः अजानाम् नाव अजानाम
अस्तु अस्तु आगच्छति तत्र आगच्छत् इति भवति अस्तु राधा भगिनि
आगच्छत् आगच्छताम् आगच्छन् आगच्छः आगच्छतम् आगच्छत आगच्छम् आगच्छाव आगच्छाम
अस्तु पतति प्रिया भगिनि
अपतत् अपतथाम् अपततन् अपतः अपततम् अपतत अपतत अपतम् अपताव अपताम
अस्तु अनन्तरं पश्यति गोपाल् महोदय
अपश्यत् अपश्यताम् अपश्यन् अपश्यः अपश्यतम् अपश्यत अपश्यम् अपश्याव अपश्याम
अस्तु अनन्तरं
भगिनी एकः संशयमस्ति पश्यदातु दृष्टवान् इति तवतो प्रत्यय हियर् इट् इस् अपश्य किल ओके
अस्तु भवती एव भगिनी भ्रमति
रमति रमि अरमत् रमताम् अरमन्
भ्रमति भ्रमति
भ्रमति अस्तु अस्तु अभ्रमत् अभ्रमताम् अभ्रमन् अभ्रम अभ्रमतम् अभ्रमत् अभ्रमम् अभ्रमाव अभ्रमाम समीचीनं वा
समीचीनं स्मरति प्रिया भगिनी
स्मरति अस्मरत् अस्मरताम् अस्मरन् अस्मरः अस्मरतम् अस्मरथ अस्मरम् अस्मराव अस्मराम
गायति गोपाल् महोदय
अगायत अगायताम् अगायन् वा अगायं या अगायन् वा अगायन्
अगायन्
अगायः अगायतम् अगायत अगायम् अगयाव अगयाम
अस्तु अनन्तरं प्रच्छ पृच्छति इत्यस्य राधा भगिनी
अपृच्छत् अपृच्छताम् अपृच्छन् अपृच्छः अपृच्छतम् अपृच्छत् अपृच्छम् अपृच्छाव अपृच्छाम तत्र तव तु रूपं पृष्टवान् अस्ति किल धन्य
अस्तु शृणोति प्रिया भगिनि
शृणोति अशृणोताम् अशृणोन् इस् दट् रैट् भगिनि
न तत्र
दट् सौण्ड्स् राङ्ग् श्रुतवान् भगिनि
एकनिमिष इदानीम् अहम् अपि एकनिमिष
सारि भगिनि
अश्रुणुतत् इति एकनिमिषम्
अश्रुतात् अश्रुताम् अश्रुन् अश्रुः अश्रुतम् अश्रुत अस्ति वा
एकनिमिषम्
अश्रुवाप अश्रुमाम इति अहं चिन्तयामि
एकनिमिषः अश्रुणोत् अस्तु एतस् अस्तु एकनिमिष अहं किञ्चित् क्लेशः भवति एतत् दृश्य एकनिमिष इदानीं दृश्यते वा
आं भगिनि
अशृणोत् अशृणुताम् अशृण्वन् अश्रुणोः अश्रुणुतम् अश्रुणुत अश्रुन् एकनिमिषः किमर्थम् अश्रुण अश्रुणवम् इति भवति किञ्चित् कठिनः अस्ति एतत् तत्र एकवारं प्रिया भगिनी एकवारम् एतत् पठतु
अश्रुणोत् अश्रुणुताम् अश्रुणु शृण्वन् अशृण्वन् अश्रुणोः अश्रुणुथम् अश्रुणुथ अश्रुणवम् अश्रुणुव अश्रुणुम
समीचीनम् एतत् किञ्चित् कठिनः अस्ति अस्तु अनन्तरं अकथयत् तत्र कथयति इत्यस्य गोपाल् महोदय
कथयति अकथयत् अकथयताम् अकथयम् अकथयः अकथयतम् अकथयत अकथयम् अकथयाव अकथयाम
समीचीनम् अनन्तरं रमति
रमति
न रमति न निमिष कथयति अनन्तरं रमते रमते क्षम्यताम्
रमते अरमत् अरमेताम् अरमन्त अरमताः अरमेथाम् अरमध्वम् अरमे अरमावहि अरमामहि
अनन्तरम् ईक्षते एतदपि कठिनः भवति अहं रक्षामि एकनिमिषम् दृश्यते वा
किमपि न इदानीं दृश्यते भगिनि
पठतु ईक्षते इत्यस्य रूपाणि
ऐक्षत ऐक्षेताम् ऐक्षन्त ऐक्षताः ऐक्षेथाम् ऐक्षध्वम् ऐक्षे ऐक्षावहि ऐक्षामहि
अस्तु अनन्तरं देवते गोपाल महोदय
देवते असेवत असेवेताम् असेवन्त असेवथाः असेवेथाम् असेवध्वम् असेवे असेवावहि असेवामहि.
समीचीनम्. अस्तु, तावदेव अस्ति तत्र अभ्यासे. अस्तु अस्तु, एतत् सम्भाषणं पठामः. अस्तु, तत् सम्भाषणम् उच्चैः पठत अवगच्छत च. अत्र स्म इत्यस्य प्रयोगः वयं पश्यामः. पितामही सः का भवति?
पितामही भवति.
ऐ केन् बि भगिनि
भवान्.
बालकः?
अहं बालकः. भवान्
अस्तु, पठन्तु एकवारम्.
एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च. पितामहि: वत्स, अहं ह्यः एकां कथाम् आश्रावयाम्, स्मरसि किम्?
आम्, स्मरामि.
तर्हि वद, कः कः किं किं करोति स्म?
सञ्जयः श्रावयति स्म, धृतराष्ट्रः शृणोति स्म, अर्जुनः दुःखम् अनुभवति स्म, कृष्णः बोधयति स्म.
सम्यक्, कृष्णः किं करोति स्म?
कृष्णः पाण्डवानां मार्गदर्शनं करोति स्म, सर्वेषु उत्साहं पूरयति स्म, अश्वानां परिचरणं करोति स्म, सर्वान् युद्धनीतिं बोधयति स्म, रथं चालयति स्म, अर्जुनस्य रक्षणं कुरुते स्म.
अत्र किं भवति? स्म इति अत्र. अस्तु, पुनः एकवारं पश्यामः. वत्स, अहं ह्यः एकां कथाम् वत्स, अहं ह्यः एकां कथाम् अश्रावयं, स्मरसि किम् इति सः पृच्छति. अत्र अश्रावयम् इति रूपं किम्?
भूतकालरूपं भगिनि.
लङ्लकारः वा सौत् प्रत्ययः वा?
लङ्लकाररूपम्.
अस्तु, अनन्तरम् आं स्मरामि. तर्हि वद, वद इति किं रूपम्?
प्रेसेण्ट् टेन्स्, लोट् लकारः वा?
आज्ञारूपम्.
आम्,
किं रूपं भगिनि?
तत्र लोट् लकारः.
त्वं
वद, सः कः किं किं करोति स्म? अत्र सञ्जयः श्रावयति स्म. तत्र दिस् इस् कण्टिन्यूस् पास्ट्, लैक् हि वास् डूयिङ्ग् दट् इति. सञ्जयः श्रावयति स्म, धृतराष्ट्रः शृणोति स्म, अर्जुनः दुःखम् अनुभवति स्म, कृष्णः बोधयति स्म. अत्र कृष्णः किं करोति स्म? कृष्णः पाण्डवानां मार्गदर्शनं करोति. सः किं, पाण्डवः भवन्तः किं कर्तव्यम् इति कृष्णः वदति. सर्वेषु उत्साहं पूरयति स्म नाम किम्?
ए sarveshu sarva in all places he was enthusiasm, he was filling it with enthusiasm. Va
he does everything with happiness athava enthusiasm. अश्वानां परिचरणं करोति स्म नाम
हार्सेस् हि टेक्स् केर् आफ्
हार्सेस्
सर्वान् युद्धनीतिं बोधयति स्म
हि
हि टोल्ड् आल् द रूल्स् आफ् engaging in warfare.
Anantaram Ratham chalayati sma,
he is also the chariot of Pandaratham.
अनन्तरम् अर्जुनस्य रक्षणं कुरुते स्म हि प्रोटेक्ट्स् अर्जुन.
भगिनी एकः संशयः अस्ति, रक्षणं कुरुते करोति स्म,
करोति कुरुते सेम् थिङ्ग् इण्टर्चेञ्जबल्.
So, this is present continuous, va?
No, past continuous.
Bhutakala.
Past continuous. Okay. So, present you use Shravayati. To make it past continuous, you use the present and you append Sma. Va?
So, Shravayati Sma.
ओके ओके
इदानीम् अत्र एतत् भवन्तः गृहपाठरूपेण कुर्वन्तु. अस्तु, सरलमस्ति, तत्र सम्भाषणस्य प्रश्नाः एव सन्ति. अस्तु, अग्रिमसप्ताहे वयं अभ्यासद्वयम् अत्र अस्ति, तत् कृत्वा वयं क्रोधपिशाचः कथाम् आरम्भं कुर्मः. अस्तु
अस्तु भगिनि,
अस्तु, धन्यवादः.